इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। इदानीं वार्ताः। केन्द्रीय मन्त्रिमण्डलेन देशे त्रिसिभ्यः नवीनाभ्यः मेट्रो रेल परियोजनाभ्यः स्वीकृतिः प्रदत्ता। एतासु परियोजनासु एकादशाधिक षड्शतोत्तर पञ्चदश सहस्र कोटि रूप्यकाणां बेंगलुरु मेट्रो रेलयानस्य तृतीय चरणं द्विशतोत्तर द्वादश सहस्र कोटि रूप्यकाणां च ठाणे रिंग मेट्रो रेलयानस्य भूयोपि त्रिसहस्र कोटि रूप्यकाणां च पुणे मेट्रो रेलयानस्य परियोजनाः सम्मिलिताः सन्ति। मन्त्रिमण्डलस्य उपवेशनानन्तरं सूचना प्रसारण मन्त्री अश्विनी वैष्णव सूचितवान् यत् बेंगलुरु मेट्रो परियोजनया नगरे गमनागमन व्यवस्थायै साहाय्यं मेलिष्यति। बांग्लादेशस्य अल्पावधये नियोजितस्य प्रशासनस्य प्रमुखः मोहम्मद यूनुसः बांग्लादेशे सर्वेषां हिन्दूनाम् अल्पसंख्यकानां च सुरक्षायाः कृते आश्वासनं प्रदत्तवान्। श्रीयूनुसः ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दूरभाषे कृतसंवादे आश्वासनं प्रदत्तवान्। दौरभाषिके संवादे एतस्मिन् प्रवर्तमान स्थितिम् अवलम्ब्य विचार विमर्शोऽपि जातः। श्रीमोदी लोकतन्त्राय स्थिराय शान्तिपूर्णाय प्रगतिशीलाय च बांग्लादेशाय भारतस्य समर्थनं पुनरावर्तितवान्। जम्मू कश्मीरे विधानसभा निर्वाचनम् आगामी मासस्य अष्टादश दिनांकात् आरभ्य त्रिषु चरणेषु भविष्यति। तत्रैव हरियाणायाम् अस्मिन् वर्षे अक्टूबर मासस्य प्रथमे दिनांके एकस्मिन्नेव चरणे निर्वाचनं भविष्यति। जम्मू कश्मीरस्य हरियाणायाः च मतदानस्य गणना अक्टूबर मासस्य चतुर्थे दिनांके भविष्यति। मुख्य निर्वाचनायुक्तः राजीव कुमारः ह्यः नवदिल्ल्यां जम्मू कश्मीर हरियाणा राज्ययोः निर्वाचन कार्यक्रमस्य घोषणां कृतवान्। जम्मू कश्मीरे प्रथमचरणस्य मतदानम् आगामि मासस्य अष्टादश दिनांके, द्वितीय चरणस्य मतदानम् पञ्चविंशे दिनांके, तृतीयस्य अन्तिमस्य च मतदानम् अस्य वर्षस्य अक्टूबर मासस्य प्रथमे दिनांके भविष्यति। राष्ट्रम् अद्य तृतीयस्य वॉइस ऑफ ग्लोबल साउथ इत्येतस्य शिखरसम्मेलनस्य आभासीय माध्यमेन नेतृत्वं विधास्यति। शिखरसम्मेलनस्य अस्य विषयो विद्यते सतत भविष्याय एकं सशक्तं वैश्विक दक्षिणम्। विदेशमन्त्रालयेन विज्ञापितं यत् शिखरसम्मेलनमिदं संघर्ष खाद्योर्जा सुरक्षा संकटानां तथा च व्यतीतेषु शिखरसम्मेलनेषु संजात चर्चानां विस्तारणाय मञ्चत्वेन कार्यं समाचरिष्यति। अत्रावसरे विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः प्रोदीरितवान् यत् एतस्मिन् सम्मेलने सर्वे वैश्विकदक्षिणदेशाः आमन्त्रिताः। अस्योद्घाटनसत्रं राज्यप्रमुखे प्रशासनस्तरे च भविष्यति, यस्य आतिथ्यं प्रधानमन्त्रिणा नरेन्द्रमोदिना करिष्यते। अस्य वर्षस्य पैरालम्पिक क्रीडासु देशस्य चतुरशीतिः क्रीडकानां सर्वाधिकसंख्यायुतं दलमेकं क्रीडिष्यन्ति। पैरालम्पिक क्रीडा एषा अस्य मासस्य अष्टाविंशति दिनांकतः सितम्बर मासस्य अष्टमदिनांकं यावत् प्रचलिष्यति। सप्तचत्वारिंशत् क्रीडकाः प्रथमवारं भागं स्वीकुर्वन्ति। नवदिल्ल्यां ह्यः द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य सप्ततितमस्य राष्ट्रिय चलचित्र पुरस्कारस्य घोषणा जाता। ऋषभशेट्टी इत्येषः कान्तारा चलचित्रे अद्भुतम् उत्कृष्टं च अभिनयं कृत्वा ऐषमः सर्वोत्तम अभिनेतुः पुरस्कारं प्राप्तवान्। सर्वोत्तमाभिनेत्री पुरस्कारः तमिलचलचित्रस्य थिरुचित्राम्बलम् इत्यस्य कृते नित्यामेनन् इत्यस्यै, गुजराती चलचित्रस्य कच्छ एक्सप्रेस इत्यस्य मानसी पारेख इत्यस्यै प्रदीयते इति वार्ताः।